ॐ श्रीमद्भागवत महापुराणम् एकादशस्कन्धः अथ सप्तविंशोऽध्यायः। उद्धव उवाच, क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो, यस्मात् त्वायि यथार्चन्ति सात्वता सात्वतर्षभ। एतद्वदन्ति मुनयो मुहुर्निःश्रेयसन्दृणाम्। नारदो भगवान् व्यास आचार्यो गिरसस्सुतः, निःसृतन्ते मुखाम्भोजाद्यदाह भगवान् जः। पुत्रेभ्यो भृगुमुखेभ्यो देव्यै च भगवान् भवः। एतद्वै सर्ववर्णानामाश्रमाणाय च सम्मतम्। श्रेयसामुत्तमं मन्ये श्रीशूद्राणाय च मानद। एतत्कमलपत्राक्ष कर्मबन्धविमोचनम्। भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर। श्रीभगवानुवाच, नयन्तोऽनन्तपारस्य कर्मकाण्डस्य चोद्धव। संक्षिप्तं वर्णयिष्यामि यथावदनुपूर्वशः। वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः। त्रयाणामीप्सितेनैव विधिना मां समर्चयेत्। यदा स्वनिगमे नोक्तं द्विजत्वं प्राप्य पूरुषः, यथा भजेत मां भक्त्या श्रद्धया तन्निबोधमे। अर्चायां स्खण्डिले नौ वा सूर्ये वाप्सुहृदिद्विजे, द्रव्येण भक्तियुक्तोऽर्चेत् स्वगुरुं माममायया। पूर्वं स्नानं प्रकुर्वीत धौतदन्तोऽङ्गशुद्धये। उभयैरपि च स्नानं मन्त्रैर्मृग्रहणादिना। सन्ध्योपास्त्यादिकर्माणि वेदेनाचोदितानि मे। पूजान्तैः कल्पयेत् सम्यक् सङ्कल्पक् कर्मपावने। शैली दारुमयी लौही लेप्या लेख्या च सैकती। मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता। चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम्। उद्वासावाहनीनस्तस्थिरायामुद्धवार्चने अस्थिरायां विकल्पस्यात्स्थण्डिले तु भवेद्वयम् स्नपनं त्वविलेप्याय मन्यत्र परिमार्जनम् द्रव्यैः प्रसिद्धैर्मद्यागः प्रतिमादिष्वमायिनः भक्तस्य च यथा लब्धैर्हृदि भावेन चैव हि स्नानालङ्करणं प्रेष्ठ मर्जायामेव तूर्धव स्थण्डिले तत्त्वविन्यासो वह्नावाज्यप्लुतं हविः सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः श्रद्धयोपारुतं प्रेष्ठं भक्तेन मम वार्यपि भूयप्यभक्तो परुतं न मे तोषाय कल्पते गन्धो धूपस्सु मनसो दीपो नाद्यै च किं पुनः शुचिस्संभृतसंभार प्राग्दर्भैकल्पितासनः आसीनः प्रागुदग्वार्चे दर्जाय मथ सम्मुखः कृतन्यासत्कृतन्यासां मदर्चां पाणिनां वृजे कलशं प्रोक्षणीयै च यथा वदुपसाधये तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च प्रोक्ष्यपात्राणि त्रीण्यद्भिस्तैस्तैर्द्रव्यैश्च साधये पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि दैशिकः रुदाशीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रये पिण्डे वायवग्निसंशुद्धे पद्मस्थां परां मम अण्वी जीवकलां ध्यायेनादान्ते सिद्धभावितां तयात्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः स्थाप्यन्यस्ताङ्गं मां प्रपूजये पाद्योपस्पर्शार्हणादीनुपचारान् प्रकल्पये धर्मादिभिश्च नवभिः कल्पयित्वासनं मम पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् उभाभ्यां वेदतन्त्राभ्यां मह्यन्तु भयसिद्धये सुदर्शनं पाई च जन्यं गदासीषु धनुर्हलान् मुसलं कौस्तुभं मालां श्रीवत्सै चानुपूजये नन्दं सुनन्दं गरुडं प्रचण्डै चण्डमेव च महाबलं बलै चैव कुमुदं कुमुदीक्षणं दुर्गां विनायकं व्यासं विश्वक्सेनं गुरून् सुरान् स्वे स्वे स्थाने त्वभिमुखान् पूजये प्रोक्षणादिभिः चन्दनोषीरकर्पूरकुङ्कुमा गुरुवासितैः सलिलैस्नापयेन्मन्त्रैर्नित्यदा विभवे सति स्वर्णघर्मानुवाकेन महापुरुषविद्यया पौरुषेणापि सूक्तेन सामभीराजनादिभिः वस्त्रोपवीताभरणपत्रस्रग्गन्धलेपनैः अलङ्कुर्वीतसप्रेम मद्भक्तो मायथोचितम् पाद्यमाचमनीयै च गन्धं सुमनसोक्षतान् धूपदीपोपहार्याणि दद्यान्मे श्रद्धयार्चकः गुडपायससर्पींषि शष्कुल्यापूपमोदकान् सय्यावदधि सूपांश्च नैवेद्यं सति कल्पये अव्यङ्गोन्मर्दनादर्शदन्तधावाभिषेचनम् अन्नाद्यगीतनृत्यादि पर्वणि स्युरुतान्वहम् विधिना विहिते कुण्डे मेखलागर्तवेदिभिः अग्निमाधाय परितः समूहे पाणिनोदितम् परिस्तीर्याथ पर्युक्षेदन्वाधाय यथाविधि प्रोक्षण्यासाद्यद्रव्याणि प्रोक्ष्याग्नौ भावयेतमाम् तप्तजाम्बूनदप्रख्यं स शङ्खचक्रगदाम्बुजैः लसच्चतुर्भुजं शान्तं पद्मकेजल्कवाससं स्फुरत्किरीटकटककटिसूत्रवराङ्गदम् श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ध्यायन्नभ्यर्च्य दारूणि हविषाभिहृतानि च प्रास्याज्य भागावाघारौ दत्वाचार्यप्लुतं हविः जुहुयान्मूलमन्त्रेण षोडशर्चावदानतः धर्मादिभ्यो यथा न्यायं मन्त्रैः स्विष्टकृतं बुधः अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरे मूलमन्त्रैजपे ब्रह्मस्मरन्नारायणात्मकम् दत्त्वा च मनमुच्छेषं विश्वक्सेनाय कल्पये मुखवासं सुरभिमत्ताम्बूलाद्यमथार्हये उपगायन् गृणन् नृत्यन् कर्माण्यभिनयन् मम मत्कथाश्रावयै शृण्वन् मुहूर्तं क्षणिको भवेत् स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि स्तुत्वा प्रसीद भगवन्निति वन्दे तदण्डवत् शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम् प्रपन्नं पाहि मामीश भीतमृत्युग्रहार्णवान् इति शेषा मया दत्तां शिरस्याधाय सादरम् उद्वासये चेदुद्वास्यै ज्योतिर्ज्योतिषि तत्पुनः अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चये सर्वभूतेष्वात्मनि च सर्वात्माहमवस्थितः एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः अर्चन्नुभयतस्सिद्धिं मत्तो विन्दत्यभीप्सिताम् मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारये दृढम् पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान् पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम् क्षेत्रापणपुरग्रामान् दत्त्वा मत्सार्षितामियात् प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयं पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् मामीवनैरपेक्ष्येण भक्तियोगेन विन्दति भक्तियोगं सलभते वै यः पूजयेतमाम् यस्वदत्तां परैर्दत्तां हरेतसुरविप्रयोः वृत्तिं सजाय ಜಯಂತಿ ವಿಡ್ಭು ವರ್ಷಾಣಾಮಯುತಾಯುತಂ ಕರ್ತುಶ್ಚ ಸಾರಥೀರ್ಹೀತೋರನುಮೋದಿತುರೇವ ಚ ಕರ್ಮಣಾಂ ಭಾಗಿನಃ ಪ್ರೀತ್ಯ ಭೂಯೋ ಭೂಯಸಿ ತತ್ಫಲಂ ಇತಿ ಶ್ರೀಮದ್ಭಾಗವತೇ ಮಹಾಪುರಾಣೇ ಪಾರಮಹಂಸ್ಯಾಂ ಸಂಹಿತಾಯಾಂ ಏಕಾದಶ ಸ್ಕಂಧೇ ಸಪ್ತವಿಂಶೋಧ್ಯಾಯಃ ಓಂ ಸರ್ವಂ ಶ್ರೀ ಕೃಷ್ಣಾರ್ಪಣಮಸ್ತು.